सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः. खेयूराणि न भूषयन्ति पुरुषं, हारा न चन्द्रोज्ज्वलाः, न स्नानं न विलेपनं न कुसुमं, नालङ्कृता मूर्धजाः, वाण्येका समलङ्करोति पुरुषं, या संस्कृता धार्यते, क्षीयन्ते खलु भूषणानि सततं, वाग्भूषणं भूषणं. अस्तु, अस्माकं विषयः अव्ययानि. अव्ययानां प्रसङ्गे चिन्तनं क्रियमाणमस्ति. पूर्वस्मिन् वर्गे इति प्रसङ्गे पठितवन्तः. अद्य यत् विषये अवगन्तुं प्रयत्नं कुर्मः. यत् भिन्नं, यतः भिन्नं, यद् दकारान्तप्रातिपदिकं तद् भिन्नं. यद् इत्यत्र दकारान्तप्रातिपदिकम् अस्ति. यद् इति दकारान्तप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु यः, या, यद् त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. तद् भिन्नम् अस्ति. यतः इत्युक्ते यस्मात् कारणात् इति अर्थः अस्ति. तद् भिन्नम् अस्ति. यत् इति एव अत्र दत्तमस्ति. यत् प्रसङ्गे किं ज्ञातव्यम् इति शब्दस्य प्रयोगेण यदुच्यते तदेव यत् इति पदस्य योगेन अपि वक्तुं शक्यते. संस्कृतवर्गम् अद्य न आगच्छामि इति मम मित्रं वदति. अहं संस्कृतवर्गं न आगच्छामि इति मम मित्रं वदति. तदेव वाक्यं परिवर्त्य भिन्नरीत्या वक्तुमिच्छामश्चेत् मम मित्रं वदति यत् अहं संस्कृतवर्गम् अद्य न आगच्छामि. अन्यद्वाक्यं, मम स्वास्थ्यं सम्यक् नास्ति इति मम मित्रं वदति. मम स्वास्थ्यं सम्यक् नास्ति इति मम मित्रं वदति. तदेव वाक्यं परिवर्त्य यत् इति शब्दस्य प्रयोगं कृत्वा लेखितुमिच्छामश्चेत् एवं वक्तव्यं, मम मित्रं वदति यत् मम स्वास्थ्यं सम्यक् नास्ति इति वक्तुं शक्यते. अद्य यत् प्रसङ्गे अवगन्तुं किञ्चित् प्रयत्नं करवाम. भवन्तः सर्वे चतुश्चत्वारिंशत्यधिक एकशतं पृष्ठं पश्यन्तु. चतुश्चत्वारिंशत्यधिक साधु, चतुश्चत्वारिंशत्युत्तर इति अपि साधु. चतुश्चत्वारिंशत्युत्तर एकशतं पुटं पश्यन्तु. 144 पेज् पश्यन्तु. चतुश्चत्वारिंशत् इत्युक्ते 44. सङ्ख्यानां रूपाणि वयं जानीमः, किन्तु एकवारं स्मारयामि. चतुर् इति रेफान्तशब्दः, प्रातिपदिकमस्ति चतुर्. चतुर् इति रेफान्तशब्दः. पञ्चशब्दः नकारान्तशब्दः. पञ्चप्रसङ्गे प्रातिपदिकमस्ति पञ्चन्. षट् शब्दस्य प्रातिपदिकमस्ति षष्, षकारान्तशब्दः, षष् अस्ति. सप्तन् नकारान्तप्रातिपदिकम्. अष्टन् नकारान्तशब्दः. नवन् प्रातिपदिकम् अस्ति, नकारान्तशब्दः अस्ति, नकारान्तप्रातिपदिकम्. एक इति अकारान्तप्रातिपदिकम्. द्वि इकारान्तशब्दः. त्रि इकारान्तशब्दः. चतुर् रेफान्तशब्दः. शतं नपुंसकलिङ्गशब्दः. सहस्रम् अपि नपुंसकलिङ्गशब्दः. शतं सहस्रं द्वयमपि अकारान्त नपुंसकलिङ्गपदद्वयम्. इति इत्यस्य प्रयोगद्वारा यदुच्यते तत् यत् योगेन अपि वक्तुं शक्यते. तस्मात् आरभ्य पठेम. अवधेयम् इति लिखितमस्ति. रमेश महोदय, भवान् वदतु, अवधेयम् इति पदं कीदृशं पदम्?
अवधेयम् इति यत् यत् इति ऋहल्योर्धेयं, हा तदेव भवेत्, यत् इति चिन्तयामि.
रुहलोर्ण्यत् इति सूत्रं हलन्तधातूनां कृते ऋकारान्तधातूनां कृते कार्यं करोति. तत्र ण्यत् इति प्रत्ययः अस्ति, किन्तु अत्र यत् इति प्रत्ययः अस्ति. यत् इति प्रत्ययः अजन्तधातुभ्यः विहितः भवति. अत्र अचोयत् इति सूत्रमस्ति. अचोयत् सूत्रेण अजन्तधातुभ्यः यत् प्रत्ययः विहितः भवति अचोयत् इति सूत्रेण. इतोपि वक्तुमिच्छति वा रूपसिद्धेः प्रसङ्गे?
अवयोगः जि इति धातु इति
धा इति धातुः
धा इति धातु वा धा धा धारण तदेव वा
धा धातुः आकारान्तधातुः कानिचन अन्यानि पदानि ईदृशानि पदानि वदामि तदा अवगमनं भवति धा धातोः यत् प्रत्ययान्तरूपं देयं भवान् श्रुतवान् खलु श्रद्धया देयं श्रद्धया देयम् अश्रद्धया न देयं क्रियादेयं ह्रियादेयं भियादेयं संविदादेयम् एवं दा धातोः रूपमेव देयम् अस्ति पा धातोः रूपं पेयम् अस्ति स्था धातोः रूपं स्थेयं धा धातोः रूपं धेयं हा धातोः रूपं हेयम् इति रूपम् अस्ति आहत्य अत्र किं वक्तुमिच्छामि एते धातवः आकारान्तधातवः अजन्तधातवः अतः एतेभ्यः धातुभ्यः परं यत् प्रत्ययः विहितः भवति अचो यत् इति सूत्रेण अपि च आकारान्तस्य अङ्गस्य ईकारादेशः भवति तत्र ईद्यति इति एकं सूत्रमस्ति ईत् यति यति इति कथनेन सप्तम्यन्तं पदमस्ति तस्मिन् सूत्रे सूत्रमस्ति ईद्यति तेन सूत्रेण आकारान्तस्य अङ्गस्य यत् प्रत्यये परे ईकारादेशः भवति इति तेन सूत्रेण उच्यते तेन धा इत्यस्य रूपं धी भवति पश्चात् अयं यत् प्रत्ययः आर्धधातुकप्रत्ययः खलु यत् प्रत्ययः तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकं शेषः सूत्रेण आर्धधातुकप्रत्ययः धी इत्यत्र इगन्तमङ्गमस्ति खलु अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा धी इत्यस्य रूपं धे भवति ईकारस्य गुणः एकारः तत्र सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः भवति तेन धेयम् इति रूपं सिध्यति अव उपसर्गपूर्वक धा धातुतः यत् इति प्रत्ययः विहितः अत्र
भगिनी यत् कृत् प्रत्ययः
कृत् प्रत्ययः किन्तु सर्वेभ्यः धातुभ्यः न विहितः भवति केवलम् अजन्तधातुभ्यः एव विहितः भवति सूर्यकुमारी भगिनी भवती आरम्भं करोतु
इति इत्यस्य प्रयोगद्वारा यत् उच्यते तत् यत् पदयोगेन अपि वक्तुं शक्यते इति इत्यस्य प्रयोगद्वारा यत् उच्यते तत् यत् पदयोगेन अपि वक्तुं शक्यते यः यदा भवती उक्तवती तदेव इदं वाक्यस्य अर्थं भवति यत्र यत्र इति प्रयोग अस्ति तत्र यत् अपि उपयुज्यते इति
यत् योगः उच्यते तत्र सन्धिकार्यं कुर्मः चेत् किं भवति
यत् योगः यत् इच्छते
यदुच्यते
यदुच्यते
वक्तुं शक्यते इत्यत्र सन्धिकार्यं किं
मौनस्वारः
लोको भिन्नरुचिः इत्यत्र सन्धिकार्यं किं
लोकः लोकः भिन्नरुचिः विसर्गसन्धि अस्ति सकारः रेफः उकारः पूर्वरूपसन्धि
पूर्वरूपसन्धिः नास्ति
ओके गुण क्षम्यतां गुणः
हषि च सूत्रेण ऊत्वं भवति ऊत्वं भवति पश्चात् आद्गुणः सूत्रेण गुणकार्यं भवति वस्तुतः अत्र पदमस्ति लोकः लोकः भिन्नरुचिः इति पण्डिताः वदन्ति भवती श्रुतवती वा इदं वाक्यं
भगिनी
दर्शना भगिनी कृपया वदतु लोको भिन्नरुचिः इदं कीदृशं वाक्यं
लोकः भिन्नरुचिः इति आङ्ग्लभाषायां वदामि
वदतु
डिफ्रेण्ट् इण्ट्रेस्ट् इति
पीपल् हेव् डिफ्रेण्ट् इण्ट्रेस्ट् पीपल् हेव् डिफ्रेण्ट् टेस्ट् लोकः भिन्नरुचिः
भगिनि तत्र किञ्चित् लोकः भिन्नरुचिः एस् दो पीपल् आर् अ डिफ्रेण्ट् टेस्ट् इसन्ट् इट्
यद्यपि अत्र पदं लोकः इति लिखितमस्ति अत्र लोकः इत्युक्ते जनः जनः भिन्नरुचिः अत्र पदद्वयमस्ति एकं पदमस्ति लोकः अथवा जनः भिन्नरुचिः भिन्नरुचिः इति समस्तपदमस्ति अस्मिन् पदे बहुव्रीहिसमासः अस्ति भिन्नाः रुचयः यस्य सः भिन्नाः रुचयः यस्य सः इति विग्रहवाक्यम् अस्मिन् पदे बहुव्रीहिसमासः अस्ति सामान्यतया बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति अत्र लोकः भिन्नरुचिः अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति लोकः कीदृशः लोकः भिन्नरुचिः जनः भिन्नरुचिः अत्र उद्देश्यविधेयभावः नास्ति विशेषणविशेष्यभावः अस्ति पण्डिताः किं वदन्ति लोकः भिन्नरुचिः प्रत्येकं मनुष्यस्य सामर्थ्यानुगुणं तस्य रुचिः वर्तते इदं वाक्यं रघुवंशकाव्यात् उद्धृतं वाक्यमस्ति कालिदासेन विरचितं काव्यं रघुवंशं रघुवंशकाव्ये इदं लिखितमस्ति वदतु
सप्तदशोऽध्याये अपि अस्ति किल श्रद्धात्रय विभा तत्र अपि रुचयः
इदं वाक्यं रघुवंशकाव्यात्
सत्यं परन्तु अर्थ भावः तदेव इति अहं चिन्तितवती
अस्मिन्नेव अर्थे अन्यः श्लोकः अस्ति वा गीतायां
श्लोकः तु नास्ति परन्तु भावः अस्ति यतोहि तत्र लिखितम् अस्ति सत्त्वगुणानां जनानां कथम् अस्ति रुचिः कट्वं ललवणात् सत्यम् अस्ति किल तदर्थम् अहम् उक्तवती चिन्ता नास्ति
रुचिः इति कथनेन टेस्ट् इति अर्थः अस्ति वा इण्ट्रेस्ट् इति अर्थः अस्ति वा इति द्रष्टव्यम् अत्र तु पीपल् हेव् डिफ्रेण्ट् इण्ट्रेस्ट्
आम् इण्ट्रेस्ट् अस्ति परन्तु अहं चिन्तयामि यत् तथा अपि अहं वयं गृहीतुं शक्नुमः इति
रघुवंशमहाकाव्यात् उद्धृतः श्लोकः अयं तत्र श्लोकः एवम् अस्ति अधाङ्गराजादवतार्य चक्षुर्याहीति जन्याम् अवदत् कुमारी नासौ न काम्यो न च वेद सम्यक् न सा भिन्नरुचिर्हि लोकः श्लोकस्य अन्तिमभागे इदं वाक्यं लिखितमस्ति भिन्नरुचिर्हि लोकः हि इति कथनेन तत्र एम्फसिस् अस्ति कालिदासेन विरचितं काव्यं तत् अस्ति लोकः भिन्नरुचिः इत्युक्ते पीपल् हेव् डिफ्रेण्ट् टेस्ट्स् आर् इण्ट्रेस्ट्स् तेषां सामर्थ्यानुगुणं तस्य रुचिः वर्तते समर्थस्य भावः सामर्थ्यं सूर्यकुमारी भगिनी भवती वदतु भिन्न इति पदमस्ति तत् कीदृशं पदम्
अव्ययमस्ति वा भगिनि
भिन्न
तान्तपदम्
इतोपि वदतु
विद्योगः इति स्थितौ तत्र रथाभ्यां न रथाभ्यां नो न रसाभ्यां नो न समानपदे र द यत्र रेफः दकारः भवति दकारः वा न तत्र द्वयोः स्थाने नकारः आगच्छति अपि च दकारस्य स्थाने यत् तान्त यत्र तकारस्य यद् तत्र तत्रापि नकारः आगच्छति इति तदेव सूत्रस्य अर्थः तदाभ्यां निष्ठातो नः पूर्वस्य चदः इति सूत्रेण तत्र द्वयोः दकारस्य स्थाने नकारः अपि च तकारस्य स्थाने नकारः आगच्छति
छिद् अस्ति चेत् छिन्न भिद् अस्ति चेत् भिन्न एवं रूपाणि भवन्ति रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रमस्ति तेन सूत्रेण क्ताप्रत्ययस्य अनुबन्धलोपानन्तरं यः तकारः वर्तते तस्य तकारस्य स्थाने अपि नकारः आयाति भिद् इत्यत्र अन्तिमदकारः अस्ति भिद् इति धातुः दकारान्तधातुः अन्तिमदकारस्य स्थाने अपि नकारः आयाति तकारस्य स्थाने नकारः दकारस्य स्थाने अपि नकारः अतः नकारद्वयं दृश्यते दकारान्तधातूनां प्रसङ्गे इदं कार्यं भवति रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण भिद् धातुतः भिन्न इति रूपं सिद्ध्यति वस्तुतः भिदिर् इरित् धातुः अस्ति अयं धातुः रुधादिगणे अस्ति रुधादिगणे अस्ति इति कारणतः रुधादिभ्यः श्नम् इति सूत्रं कार्यं करोति लटि प्रसङ्गे तदर्थमेव भिनत्ति इति रूपं सिद्ध्यति. लट्लकाररूपं भिनत्ति अस्ति. उपदेशावस्थायां तस्य रूपं भिदिर् अस्ति. इरः इति संज्ञावाच्य इति वार्तिकेन इर् इत्यस्य शब्दसमुदायस्य इति संज्ञालोपानन्तरं भिद् भवति. भिद् धातोः अर्थः कः? पृथक्करणं. भिद् धातोः रूपमेव भेदः. भिद् धातोः रूपमेव भिन्नं. तद्भिन्नम् एतद्भिन्नं सा वार्ता भिन्ना एषा वार्ता भिन्ना एवं वदामः खलु. कृतान्तरूपाणि इमानि. कृतान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. पृथक्करणम् इति अर्थः अस्ति. लोकः इति पदं दत्तमस्ति. भुवादिगणे धातुः अस्ति. लोक इति धातुः अस्ति. तस्य रूपं लोकते. आत्मनेपदिरूपम् अस्ति. लोकते आ उपसर्गपूर्वकः अस्ति चेत् आलोकते इति भवति. अहम् एकं गीतं श्रुतवती. आलोकये श्रीबालकृष्णम् इति संस्कृतकीर्तनम् अस्ति. आलोकये श्रीबालकृष्णम् इति उच्यते. लोकते इति भुवादिगणीयधातोः लटीरूपम् अस्ति. लोकधातुः दर्शने इत्यस्मिन् अर्थे अस्ति. दर्शना भगिनी भवती वदतु, दर्शनम् इति पदं कथं साधनीयम्?
साधनायाः विषये साधनां न कृतवती.
चिन्ता मास्तु. सूर्यकुमारी भगिनी वक्तुमिच्छति वा?
हा, ल्युडन्तमति इति जानामि, परन्तु कथं साधनीयम् इति न जानामि.
चिन्ता मास्तु.
तृष्योगः लिट् युवोरनाको इत्यनेन अन्न आदेशः भवति. दृश्
केन सूत्रेण गुणकार्यं तत्र?
अर्थधातुके अर्धधातुकस्य वलादेः अर्धधातुकप्रत्यये अस्ति.
ल्युट् इति अर्धधातुकप्रत्ययः अस्ति. रमेश् महोदय कृपया वदतु. सार्वधातुक अर्धधातुकयोः नास्ति.
भगिनि ल्युडन् लिट् अस्ति. लिट् अस्ति. अना अस्ति. अना अदन्तधातुः प्रत्ययः.
दृश् इति कीदृशधातुः?
दृश् इति हलन्तधातुः.
हलन्तधातुः लघु इगुपद्धधातुः इत्युक्ते तत्र उपधायां ह्रस्वरुकारः अस्ति. ह्रस्वरुकारः उपधायाम् अस्ति इति कारणतः पुगन्तलघुपदस्य च इति सूत्रेण ल्युट् इति अर्धधातुकप्रत्ययं निमित्तीकृत्य दर्श् भवति. दर्श् दृश् इत्यस्य रूपं दर्श् भवति गुणकार्यं भूत्वा. पुगन्तलघुपदस्य च सूत्रेण गुणकार्यं भूत्वा दृश् इत्यत्र उपधायां ह्रस्वरुकारः अस्ति इत्यतः गुणकार्यं भूत्वा ल्युट् प्रत्ययं निमित्तीकृत्य गुणकार्यं भूत्वा दर्श् भवति. दर्श् योगः आना.
दर्शन अकारान्त.
तत्र एकं सूत्रमस्ति ल्युट् च. तेन सूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति. लोकधातुः दर्शने इत्यस्मिन् अर्थे अस्ति. लोकते आलोकते इत्यादीनि लटीरूपाणि वयं जानीमः. भवती पठतु.
उच्चैः पठत जानीत च. उच्चैः अव्ययमस्ति. पठत लोट्लकारस्य मध्यमपुरुषबहुवचनं. जानीत ज्ञाधातुतः प्रत्यय भगिनि जानीत अपि लोट्लकारस्य मध्यमपुरुषबहुवचनं च अव्ययम्.
वस्तुतः तत्र प्रातिपदिकम् उच्चैस् इति अस्ति. भवती श्रुतवती वा उच्चैश्रवाः इति एकं पदम् अस्ति?
उच्चैश्रवाः.
दर्शना भगिनी कृपया वदतु उच्चैश्रवाः इत्युक्ते?
तत्र अश्वानाम् अश्वानां विशेषः रूपः भगवन्तः इति.
इन्द्रस्य अश्वः श्वेतवर्णीय हयः. अश्वः हयः घोटकः तुरगः वाजी. अश्वशब्दस्य कृते एतानि पदानि पर्यायवाचकपदानि. श्वेतवर्णः हयः इन्द्रस्य अश्वः एव उच्चैश्रवाः. रमेश महोदय भवान् वदतु उच्चैश्रवाः इत्यत्र प्रातिपदिकं किम् अस्ति?
सकारान्तप्रातिपदिकम् अस्ति इति चिन्तयामि. उच्चैश्रवस्.
उत्तमम्. उच्चैश्रवस् इति प्रातिपदिकम् अस्ति. उच्चैश्रवाः इति पदमपि बहुव्रीहिसमासयुक्तं पदम् अस्ति. प्रातिपदिकम् उच्चैश्रवस्. प्रथमाविभक्ति एकवचनरूपम् उच्चैश्रवाः, उच्चैश्रवसौ, उच्चैश्रवसः एवं रूपाणि वक्तव्यानि भवन्ति. तत्र सकारान्तप्रातिपदिकम् अस्ति. पठत जानीत इति लोट्लकाररूपद्वयं, मध्यमपुरुष बहुवचनरूपं पठत अस्ति. सूर्यकुमारी भगिनी भवती वदतु ज्ञा इति दीर्घ आकारान्तधातुः अस्ति, जानीत इति रूपं किमर्थमस्ति?
ज्ञाजनो जा सूत्रमस्ति. ज्ञा अथवा जन् स्थाने जा आदेशः भवति.
ज्ञा अस्ति इति कारणतः ज्ञास्थाने ज्ञाजनोर्जा सूत्रेण जा आदेशः भवति इति तु साधु. तत् सूत्रम् अत्र कार्यं करोति. जानातु, जानाति इत्यत्र क्रियादिगणे अस्ति इति कारणतः श्नाविकरणप्रत्ययः आयाति. क्रियादिभ्यः श्ना इति सूत्रेण श्नाविकरणप्रत्ययः आयाति इति कारणतः जानाति इति रूपं सिद्ध्यति. किन्तु अत्र जानीत इति लिखितं किमर्थम्? ईकारः किमर्थम्?
जानीत.
अवगतं खलु?
जानीत.
तत्र एकं विशिष्टं सूत्रमस्ति, तदेव कारणं. तत्र ईहल्यघोः इति एकं सूत्रमस्ति. ईहल्यघोः इति सूत्रेण ईकारादेशः भवति. हलादि कित्नित् सार्वधातुकप्रत्यये परे, हलादि कित्नित् सार्वधातुकप्रत्यये परे ईकारादेशः भवति. ईहल्यघोः सूत्रे किमुक्तमस्ति? अघोः इति उक्तमस्ति. अघोः इति कथनेन घूसंज्ञकशब्दानां प्रसङ्गे एतत् कार्यं न भवति. घूसंज्ञकधातूनां प्रसङ्गे इदं कार्यं न भवति. तान् धातून् त्यक्त्वा अन्यत्र हलादिकित्नित् प्रत्यये परे आकारस्य स्थाने ईकारादेशः भवति. तदर्थमेव जानीत इति रूपं सिद्ध्यति. प्रथमपुरुषे एकवचनरूपं जानातु, तत्र सारल्यमस्ति. जानातु साधयतु.
जानातु जन् जन् जन्धातु.
ज्ञाधातुः.
ज्ञाधातु ज्ञास्थाने जा आयाति. तदनन्तरं लुट्लकारस्य
लोट्लकारस्य
प्रथमपुरुष सिद्धतेन प्रत्यये तु तात् तात् जा योगः
क्रियादिगणे अस्ति इति कारणतः
स्नाव विकरणप्रत्ययात् आयाति. जा योगः ना एव अवशिष्यते. जाना योगः तु जानातु.
उत्तमं. तत्र सिद्धतिङ्प्रत्ययः तु अस्ति, अपि च जाना इति अङ्गं भवति. तिङ्प्रत्ययस्य कृते जाना इति अङ्गं भवति. क्रयादिगणे अस्ति इति कारणतः क्रयादिभ्यः श्ना इति सूत्रेण श्नाविकरणप्रत्ययः आयाति. श्नाविकरणप्रत्ययस्य अवशिष्टभागः न अस्ति, अपि च ज्ञाजनोर्जासूत्रेण ज्ञास्थाने जा आदेशः भवति. ज्ञाधातोः प्रसङ्गे लोट्लकाररूपाणि खलु वयं पठामः. अत्र जानातु, जानीतां, जानन्तु, जानीहि, जानीहि इत्यत्र सेर्ह्यपिच्च इति सूत्रेण हि आदेशः भवति. सः हि तत्र तिष्ठति. पठधातोः प्रसङ्गे अदन्तमङ्गमस्ति इति कारणतः अतोहेः इति सूत्रेण पठ इति रूपमेव सिद्ध्यति. हि लोपः भवति खलु? उत्तमं. पठत इति अपि लोट् रूपमेव, जानीता अपि लोट् रूपमेव, मध्यमपुरुष बहुवचनरूपं. प्रथमं वाक्यं करोतु.
युद्धं न करोमि इति मा वदतु. युद्धं न करोमि इति मा वदतु इति प्रयोगः अस्ति. न वदतु लोट्लकार मध्यमपुरुष एकवचनं, क्षम्यतां, वदतु लोट्लकार प्रथमपुरुष एकवचनं
प्रथमपुरुष एकवचनं वदतु वदतां वदन्तु
मा न वदतु इति अर्थे
वाक्यं परिवर्त्य वदतु
मा वदतु यत् युद्धं न करोमि मा वदतु यत् युद्धं न करोमि
उत्तमं करोमि इत्यत्र किं किं कार्यं भवति
क्रूधातुतः क्रूधातुतः अं करोमि लट्लकार उत्तमपुरुष एकवचनमस्ति
क्रूधातुः तनादिगणे अस्ति तनादिकृण्भ्यः उः इति सूत्रेण ऊ इति आर्धधातुकगणविकरणप्रत्ययः आयाति ऊ प्रत्ययं निमित्तीकृत्य
गुण भवति अर्धधातुप्रत्ययः अस्ति चेत् क्रु कर् भवति
करु इति अङ्गं भवति
करु अङ्गं भवति करु योगः तिन् प्रत्ययस्य उत्तमपुरुष एकवचनं
मिप् अस्ति मिप् इत्यस्मिन् पित्वम् अस्ति
तत् गुण भवति करु योगः सार्वधातुकयोः इत्यनेन गुण भवति करो भवति करो योगः मिप् मि एव अवशिष्यते करोमि भवति
बहु सम्यक् तत्र द्विवारं गुणकार्यं दृश्यते आदौ क्रु इति धातुरूपी अङ्गे गुणकार्यं भवति विकरणप्रत्ययं निमित्तीकृत्य ऊ इति अर्धधातुकविकरणप्रत्ययं निमित्तीकृत्य क्रु इति धातुरूपी अङ्गे गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण पश्चात् करु इति अङ्गं भवति मिप् प्रत्ययस्य कृते तदपि इगन्तमङ्गमेव मिप् प्रत्ययं निमित्तीकृत्य द्वितीयवारं गुणकार्यं भूत्वा करो भवति करोमि युद्धम् इति कीदृशं पदम्
युजधातुतः
युद्धधातुतः
युद्धधातुतः क्रान्तरूपम् युद्ध योगः
क्रान्तिकार्याणि भवन्ति महोदय भवान् वदतु नपुंसकलिङ्गे इदं पदं दत्तमस्ति तत्र किं सूत्रम् आवश्यकमस्ति युद्धम् इत्यत्र
न बुद्धं महोदय किं वदनीयं सन्धिकार्याणि किं सूत्रं वा
सन्धिकार्याणि आदौ वदतु
युद्धयोगः तत्र जशस्ततोर्दोदः वा तेन तकारस्य धकारः भवति तकारस्य धकारः भवति जशस्ततोर्दोदः तकारस्य धकारः भवति तेन अपि च तत्पश्चात् युद्धं किमपि न भवति तदेव युद्धम् इति रूपं सिद्ध्यति
युद्ध इत्यत्र महाप्राणधकारः अस्ति तस्मिन् स्थाने अल्पप्राणधकारः आवश्यकः
तत् जलां जल जष् जषि जलां जष् जषि इति सूत्रेण तस्य प्रथमधकारस्य अल्पप्राणः भवति
उत्तमम् नपुंसके भावे क्तः इत्येकं सूत्रमस्ति तेन सूत्रेण नपुंसकलिङ्गे भावार्थे अस्य प्रयोगः भवति इति मम अवगमनमस्ति युद्धधातुः दिवादिगणे अस्ति दिवादिगणे अस्ति इति कारणतः तस्य रूपं युध्यते षण् विकरणप्रत्ययः आयाति खलु अतः युध्यते इति रूपं भवति सूर्यकुमारी भगिनी भवती वदतु युद्ध इति धातुः तस्य ल्युडन्तरूपं किं भवति
ल्युडन्तं युद्धयोगः अनायाति योधनं भवति
योधनं भवति अत्र युद्ध इति धातुः लघु उदुपथधातुः उपधायां ह्रस्व उकारः अस्ति ल्युट् इति अर्धधातुकप्रत्ययं निमित्तीकृत्य युद्ध इति धातौ गुणकार्यम् अङ्गकार्यं भवति पुगन्तलघुपथस्य च इति सूत्रेण गुणकार्यं भूत्वा युद्ध योध् भवति योध्योगः अन योधन योधनम् इति रूपं भवति अत्र क्तान्तरूपं दत्तमस्ति युद्धं क्तवत् रूपं युद्धवान् तुमुन्नन्तं रूपं योद्धुं तुमुन् प्रसङ्गे किं भवति
युद्धयोगः तुमुन् खित् नास्ति गुणकार्यमपि भवति
गुणकार्यं भवति युद्धम् इत्यत्र गुणकार्यं किमर्थं न भवति
स्थान्तरूपं कित् अस्ति चेत्
कित् अस्ति इति कारणतः क्निति च सूत्रेण युद्धम् इत्यत्र क्ताप्रत्ययः अस्ति क्ताप्रत्ययः कित् अस्ति कित्वात् गुणनिषेधः भवति क्निति च सूत्रेण अतः युद्धं कतावतु इत्यत्रापि गुणकार्यं निषिध्यते युद्धवान् इति रूपं भवति तत्रापि गुणकार्यं नास्ति किन्तु तुमन् प्रत्ययः कित्वं नास्ति अतः गुणकार्यं भवितुं शक्नोति अतः तुमुन्नन्तं रूपं योद्धुम् इति भवति तृजन्तरूपं योद्धा तृजन्तरूपप्रसङ्गे प्रातिपदिकं योद्धृ अयं धातुः दिवादिगणे अस्ति युध्यते इति रूपम् अस्ति युधि स्थिरः युधि स्थिरः इति कथनेन युधिष्ठिरः इति समस्तपदं सिद्ध्यति युधि इति कीदृशं पदं सूर्यकुमारी भगिनी वदतु
युधि सप्तम्यन्तं पदम्
सप्तम्यन्तं पदमस्ति तत्र प्रथमान्तं किमस्ति युद्धेव प्रथमान्तं पदं सप्तम्यन्तं पदं युधि अस्ति युधि स्थिरः इति विग्रहवाक्यं वक्तव्यं भवति इत्युक्ते सङ्ग्रामे स्थिरः सङ्ग्रामः समरम् अनेकम् इत्यादीनि पर्यायवाचकपदानि सन्ति समरम् अनेकं सङ्ग्रामः सङ्ग्रामे स्थिरः युधिष्ठिरः षत्वं भवति तस्मिन् पदे युधिष्ठिरः इत्यत्र षत्वं भवति विशिष्टसूत्रेण गवि युधिभ्यां स्थिरः इति विशिष्टसूत्रेण सकारस्य स्थाने मूर्धन्यषकारः आयाति अत्र अलुक् समासः अस्ति समस्तपदे पूर्वपदस्य विभक्तिलोपः न जातः युधिष्ठिरः इत्यस्मिन् पदे अलुक् समासः अस्ति अग्रे भवती वदतु
कुरुक्षेत्रे युत्सवः किम् अकुर्वन् इति धृतराष्ट्रः पृष्टवान् अकुर्वत लिङ् लङ्लकार आत्मनेपदी
आत्मनेपदी बहुवचनं बहुवचनम् अस्ति अकुरुत अकुर्वाताम् अकुर्वत क्रूधातुः उभयपदी धातुः किन्तु अत्र आत्मनेपदीरूपं प्रथमपुरुष बहुवचनरूपम् उक्तमस्ति बहुवचनरूपम् इदं युत्सवः किमकुर्वत युयुत्सवः इति बहुवचनरूपं खलु अतः अत्र तिङन्तपदमपि बहुवचने अस्ति युयुत्सवः किमकुर्वत इति लघुवाक्यमस्ति भवती वदतु
कुरुक्षेत्रे सप्तम्यन्तम् एकवचनं
समस्तपदम् अतः विग्रहवाक्यं वक्तव्यं
कुरुक्षेत्रे
कुरूणां क्षेत्रं कुरूणां क्षेत्रम् इति कथनेन षष्ठी तत्पुरुषसमासः अस्ति कुरुक्षेत्रे इति सम्पूर्णपदस्य समस्तपदस्य इत्युक्ते विभक्त्या सह वक्तव्यं चेत् किं वक्तव्यं कुरुक्षेत्रे इति सप्तम्यन्तं
पदमस्ति
कुरूणां क्षेत्रं तस्मिन्
एवं क्षेत्रं तस्मिन् कुरुक्षेत्रे भवति
क्षेत्रं तस्य बहुवचनरूपं किमस्ति
क्षेत्रः क्षेत्राः
नपुंसकलिङ्गपदम्
क्षेत्राणि
क्षेत्राणि अत्र रेफकारणात् अणत्वं भवति कुरूणाम् इत्यत्र केन सूत्रेण अणत्वं भवति गुरूणां कुरूणाम् इत्यत्र
गुरूणां समानपदे रसाभ्यां
न
कुरूणाम्
अट्कुप्वाङ्गनं
व्यवायेपि
अट्कुप्वाङ्गनं व्यवायेपि सूत्रेण अणत्वं भवति किमर्थं तथा
मध्ये उकार अस्ति उकार अस्ति चेत् अट्कुप्वाङ्ग
उत्तमम् उकारः अट् प्रत्याहारस्थवर्णः अस्ति तेन बाधा नास्ति अट् प्रत्याहारस्थवर्णः मध्ये अस्ति चेदपि तत्र बाधा नास्ति अतः कुरूणां गुरूणाम् इत्यत्र णत्वं भवति. तृतीयविभक्ति एकवचनरूपं कुरुणा इति भवति. तत्रापि णत्वं भवति. अट्कुप्वाङ्गनं व्यवायेपि सूत्रेण भवति. अत्र एकं नूतनं पदमस्ति, युयुत्सवः. रमेश महोदय भवान् वदतु.
युद्धमिच्छवः युत्सवः.
एकवचने वदतु.
युत्सुः.
विग्रहवाक्यं.
युद्धुम् इच्छुकः वा.
योद्धुम् इच्छुः.
इच्छुः, हा इच्छुः अपि वक्तुं शक्यते.
गुरुः गुरुः गुरवः खलु.
हा इच्छुः.
योद्धुम् इच्छुः युत्सुः. सनन्तप्रत्ययः. किञ्चित् वदतु तस्मिन् प्रसङ्गे.
सनन्तः इच्छा विषये सनन्तः भवति. तत्र योद्धुम् इच्छा इत्युक्ते युत्सा इति भवति. युत्सुः इत्युक्ते उः प्रत्ययः प्रायः तत्र अस्ति.
युद्ध इति धातुः अस्ति खलु. युद्ध धातुतः सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति. युद्ध इति धातुः अस्ति. युद्ध धातोः परम् इच्छार्थे सन् प्रत्ययः विहितः भवति. प्रत्ययानाम् अर्धाः सन्ति खलु. सनादयः द्वादश प्रत्ययाः सन्ति खलु. णिच् प्रत्ययः प्रेरणार्थे विधीयते. सन् प्रत्ययः इच्छार्थे विधीयते. युद्धधातोः परम् इच्छार्थे सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति. तस्य धातुसंज्ञा सनादयो धातवः सूत्रेण तस्य धातुसंज्ञा भवति. अत्र नूतनधातुः अस्ति युयुत्स इत्युक्ते सन्नन्तधातवः सर्वदा वदन्ताः भवन्ति. युयुत्स इति नूतनधातोः रूपं. लटिरूपमस्ति युयुत्सते. आत्मनेपदिरूपं भवति. पूर्ववत् सनः इति एकं सूत्रमस्ति. तेन सूत्रेण धातुः आत्मनेपदिधातुः अस्ति चेत् सन्नन्तरूपमपि आत्मनेपदिरूपमेव सिद्ध्यति. पूर्ववत् सनः इति सूत्रेण. अत्र युध्यते इति सामान्यलटिरूपम् इत्युक्ते धातुः आत्मनेपदिधातुः. अतः सन्नन्तरूपमपि आत्मनेपदिवत् भवति. अतः तस्य रूपं युयुत्सते. यथा महोदयेन उक्तं योद्धुम् इच्छा युयुत्सा. तत्र आ प्रत्ययः अस्ति. योद्धुम् इच्छुः इत्यत्र उ इति प्रत्ययः अस्ति. युयुत्सुः भिन्नं, युयुत्सा इति भिन्नं. तत्र भेदः अस्ति. सन्नन्तधातोः परं युयुत्सा इत्यत्र भिन्नप्रत्ययः अस्ति. युयुत्सुः इत्यत्र भिन्नकृत् प्रत्ययः अस्ति. यदा वयं नूतनधातोः निर्माणं कुर्मः तादृशधातोः परं तिङ् प्रत्ययस्य योजनेन तिङ्गन्तरूपाणि, कृत् प्रत्ययस्य योजनेन कृदन्तरूपाणि साधयितुं शक्नुमः. युयुत्सते इति तिङ्गन्तरूपं, युयुत्सुः युयुत्सा इति पदद्वयं कृदन्तरूपं. धातोः कृदन्तरूपम् अस्ति. किम् अकुर्वत इत्यत्र केवलं वर्णमेलनमेव भवति. किमर्थम् अत्र अनुस्वारसन्धिकार्यं नास्ति. स्वरः अस्ति इति कारणतः अनुस्वारसन्धिकार्यं नास्ति. तदर्थं वर्णमेलनं कृत्वा लेखितुं शक्नुमः.
किमकुर्वत अपि भवति.
श्लोके तादृशं रूपमेव लिखितमस्ति. किमकुर्वत सञ्जय इति उक्तमस्ति श्लोके. धृतराष्ट्रः इति पदं समस्तपदमस्ति. विग्रहवाक्यं वदतु.
धृतराष्ट्रः दृढ.
रमेश महोदय भवान् वदतु. धृतराष्ट्रः इत्यत्र विग्रहवाक्यं किं भवति.
धृतराष्ट्रः धृ
बहुव्रीहि समासयुक्तं पदम्. धृतं राष्ट्रं येन सह.
धृतं राष्ट्रं येन सह. धृतम् इत्युक्ते येन धृतवान् इति वा.
येन धृतं राष्ट्रं. येन राष्ट्रं धृतं सः.
धृतराष्ट्रः.
वयं जानीमः खलु बहुव्रीहिसमासस्य प्रसङ्गे लिङ्गपरिवर्तनं दृश्यते. अत्र राष्ट्रम् इति नपुंसकलिङ्गपदमस्ति. राष्ट्रम् इत्यत्र राज् इति धातुतः ष्ट्रन् इति प्रत्ययस्य योजनेन राष्ट्रम्. राष्ट्रमिति नपुंसकलिङ्गपदं. किन्तु अत्र धृतराष्ट्रः इति पुंलिङ्गपदमस्ति. तादृशं कथं सम्भवति इति प्रश्ने सति. बहुव्रीहिसमासः अस्ति चेत् तत्र लिङ्गपरिवर्तनं भूत्वा एतादृशं रूपं सिध्यति धृतं राष्ट्रं येन सह इति विग्रहवाक्यं भवति अत्र धृतं इति कीदृशं पदं वदतु
तान्तपदम् अस्ति
ध्रु इति धातुः अस्ति खलु
हा ध्रु इति धातु तान्तपदं तेन गुणकार्यं न भवति तर्हि धृतमेव रूपं सिध्यति
उत्तमं धृतं राष्ट्रं येन सह इत्यत्र स्पष्टतया वक्तुमिच्छामश्चेत् तृतीयार्धबहुव्रीहिसमासः इति वक्तव्यमस्ति किमर्थं चेत् विग्रहवाक्ये येन सह इति उक्तमस्ति धृतं राष्ट्रं येन सह इति विग्रहवाक्यमस्ति चेत् तदा तृतीयार्धबहुव्रीहिसमासः इति वक्तव्यं भवति ध्रुधातुतः कृताप्रत्ययस्य योजनेन धृत इति प्रातिपदिकमस्ति तस्मात् त्रिषु लिङ्गेषु रूपाणि पृष्टवान् इति रूपमस्ति तत्र वस्तुतः धातुः प्रच् अस्ति महोदय भवान् वदतु
तत्र सम्प्रसारणं भवति कित् अस्ति इति कृत्वा तव तु प्रत्ययः कित् अस्ति तर्हि सम्प्रसारण भवितुमर्हति तत्र सम्प्रसारणं भवति अपि पृच्छ केन सूत्रेण सम्प्रसारणं भवति ग्रहिज्यावलि
ग्रहिज्या वै व्यधि वष्टि विचति पृच्छति पृच्छतीनाम् इति एकं सूत्रमस्ति तस्मिन् सूत्रे अस्य धातोः उल्लेखः अस्ति संक्षिप्तरूपेण वदामश्चेत् ग्रहिज्या वै व्यधि इति सूत्रमस्ति तेन सूत्रेण कित् प्रत्यये परे सम्प्रसारणकार्यं प्रच् इत्यत्र पकारोत्तरवर्ती रेफः अस्ति खलु तस्य रेफस्य स्थाने ऋकारादेशः भवति सम्प्रसारणकार्यं भूत्वा पश्चात्
सम्प्रसारणाच्च इति सूत्रेण अकारस्य लोपः भवति द्वयोः स्थाने ऋकारः द्वयोः स्थाने ऋकारः एव आगच्छति
पश्चात् एकेन विशिष्टसूत्रेण व्रश्च भ्रश्च सृज मृजय जराज भ्राज छशांशः इति एकं विशिष्टं सूत्रमस्ति तेन सूत्रेण अत्र षत्वं भवति वदतु
छशांशः तर्हि मूर्धन्यषकारः एव भवति तत्र
मूर्धन्यषकारः भवति तस्मिन् सूत्रे किमुक्तमस्ति छ इति शब्दसमुदायस्य स्थाने षत्वं भवति एतावत्पर्यन्तं किं रूपं साधितम् अस्माभिः प्रच् इत्यस्य रूपं पृच् भवति
पृच् इति भवति पृच् स्थाने पृष् इति भवति इदानीं पृष् योगः त इति स्थितौ स्तुनाष्टुः इति सूत्रेण पृष्ट इति रूपं सिद्ध्यति
उत्तमं क्तान्तप्रसङ्गे क्तवतु प्रसङ्गे एतेषु सर्वेषु रूपेषु इदमेव कार्यं भवति इत्युक्ते षत्वं भवति आदौ पश्चात् ष्टुनाष्टुः सूत्रेण ष्टुत्वं भवति अतः एव पृष्टम् इति क्तान्तरूपं पृष्टवान् इति क्तवतु रूपम् अस्ति किन्तु तुमन्नन्तं रूपं प्रष्टुम् अस्ति तत्र किमर्थं सम्प्रसारणं नास्ति
कित् नित् नास्ति सम्प्रसारणं न भवति
उत्तमम् कित् नित् नास्ति इति कारणतः सम्प्रसारणकार्यं न भवति अतः प्रष्टुम् इति रूपं भवति तत्र सम्प्रसारणं नास्ति किन्तु अन्यानि कार्याणि भवन्ति षत्वं भवति ष्टुत्वं भवति एतत् सर्वं भवति किन्तु सम्प्रसारणं कार्यं न भवति अतः तुमन्नन्तं रूपं प्रष्टुम् एवमेव तव्यत् प्रत्ययान्तरूपं प्रष्टव्यम् इति भवति तव्यत् इति प्रत्ययः अपि कित् नास्ति खलु
कित् नास्ति
कित् नास्ति इति कारणतः तत्र सम्प्रसारणं न भवति प्रष्टव्यम् इति रूपं भवति प्रष्टव्यं प्रष्टुम् इत्यत्रापि षत्वम् इत्यादीनि कार्याणि भवन्ति अत्र धातुः प्रच् अस्ति प्रच् धातोः परं ल्युट् अस्ति तत्र किं कार्यं भवति
प्रश्नम् इति भवति
प्रच्छनम् इति भवति
प्रच्छनम् इति भवति वा प्रश्नं न भवति वा
न ल्युट् अपि कित् नास्ति इति कारणतः सम्प्रसारणं न भवति प्रच्छनम् अत्र पृष्टवान् इति रूपं दत्तमस्ति प्रातिपदिकं किं
पृष्टवत्
स्त्रीलिङ्गे
पृष्टवती
नपुंसकलिङ्गे
पृष्टवत्
उत्तमं पृष्टवान् इत्यत्र क्तवतु प्रत्ययः अस्ति क्तवतु प्रत्ययः निष्ठासंज्ञकप्रत्ययः अपि च भूतकालार्धकप्रत्ययः अपि च कर्त्रर्धकप्रत्ययः क्तवतु प्रत्ययान्तरूपाणि कर्तुः विशेषणानि भवन्ति कर्तृपदस्य विशेषणानि भवन्ति इत्युक्ते कर्तारं बोधयन्ति कर्तरि कृत् इति सूत्रेण क्तवत् प्रत्ययः कर्त्रर्थकप्रत्ययः भवति कर्तारं बोधयति कर्तुः विशेषणं भवति क्तवत् प्रत्ययान्तपदं धृतराष्ट्रः पृष्टवान् धृतराष्ट्रः इत्यस्य विशेषणं भवति पृष्टवान् इति रूपम् एकः अन्यः विषयः अस्ति क्तवत् इत्यत्र अनुबन्धलोपं करोतु महोदय
तवतु अत्र ककारस्य संज्ञा लषक्व तद्विते इति सूत्रेण उकारस्य तवतु उकारस्य इत्संज्ञा उपदेशे जनुनासिक इति सूत्रेण वा
तत्र अनुनासिक उकारस्य प्रयोजनम् अस्ति वा
भवेत् खलु
भवेत् खलु
यदि न भवति चेत् तस्य लोपः न कर्तुं शक्यते
इत्युक्ते पाणिनिना प्रयोजनं विना इत्संज्ञा न कृता न कदापि इत्संज्ञा न कृता पाणिनिना इत्युक्ते इत्संज्ञायाः प्रयोजनम् अत्र अस्ति तत् प्रयोजनं किं तवतु इत्यत्र अनुनासिक उकारः अन्ते अस्ति तस्य प्रयोजनमस्ति एकं विशिष्टं सूत्रं कार्यं कर्तुम् अनुनासिक उकारः अत्र आवश्यकः अस्ति पृष्टवान् इत्यत्र रूपाणि यदा वयं पश्यामः सुबन्तरूपाणि पृष्टवत् इति प्रातिपदिकं स्वीकृत्य सुबन्तरूपाणि साधयितुमिच्छामश्चेत् पुंलिङ्गरूपेषु पृष्टवान् पृष्टवन्तौ पृष्टवन्तः पृष्टवन्तं पृष्टवन्तौ पृष्टवतः इति रूपाणि भवन्ति इत्युक्ते पञ्चसु स्थलेषु एव नुमागमः दृश्यते केवलं पुंलिङ्गे पञ्चसु स्थलेषु एव नुमागमः दृश्यते इत्युक्ते सर्वनामस्थानसंज्ञकप्रत्यये परे एव नुमागमः भवति नुमागमकार्यं भवितुम् एकं सूत्रमस्ति उगिदचां सर्वनामस्थाने अधातोः उगिदचां सर्वनामस्थाने अधातोः तत् सूत्रं कार्यं कर्तुम् अनुनासिक उकारस्य आवश्यकता अस्ति तवतु इत्यत्र अनुनासिक उकारस्य आवश्यकता अस्ति अनुनासिक उकारः अस्ति चेदेव उगिदचां सर्वनामस्थाने अधातोः सूत्रेण सर्वनामस्थानसंज्ञकप्रत्यये परे एव नुमागमः भवति इत्युक्ते प्रथमपञ्चसु स्थलेषु नुमागमः दृश्यते पुंलिङ्गरूपेषु उगित् इति उक्तमस्ति तस्मिन् सूत्रे उक् इति प्रत्याहारः उगित् इति कथनेन यस्मिन् शब्दे उक् प्रत्याहारस्थवर्णः अस्ति तवतु इत्यत्र उकारः उक् प्रत्याहारे अस्ति इक् जानीमः एवमेव उक् सूर्यकुमारी भगिनी अवगतं खलु इक् जानीमः खलु इगन्तधातवः इति जानीमः खलु इक् इति एकः प्रत्याहारः एवमेव उक् अपि एकः प्रत्याहारः तस्मिन् सूत्रे उक् प्रत्याहारस्य उल्लेखः कृतः उगिदचां सर्वनामस्थाने अधातोः इति सूत्रे उक् प्रत्याहारस्य उल्लेखः अस्ति क्तवतु इत्यत्र अनुनासिक उकारस्य प्रयोजनम् अस्ति दर्शना भगिनी तृतीयं वाक्यं भवती करोतु
मम पूर्वजन्मानि कानि इति अहं स्मरामि अहं स्मरामि यत् मम पूर्वजन्मानि कानि
स्मरति वा
एतस्मिन् किं जन्मनि किम् अभवत् एव न स्मरामि मम तु अस्मद् शब्दस्य षष्टिविभक्तिरूप एकवचने पूर्वजन्मानि तत्र जन्म इति नपुंसकलिङ्गपदं जन्मन् इति भव अस्ति किं भगिनि न जानामि
उत्तमं जन्मन् नकारान्त प्रातिपदिकम् अस्ति द्वितीयाविभक्तिपर्यन्तं रूपाणि वदतु
जन्मन् जन्म जन्मनि 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 जन्म जन्मनि जन्मनि
प्रथमाविभक्ति बहुवचनं कथं भवति जन्मानि
जन्मानि जन्मानि सत्यं तत्र दीर्घ अस्ति किल द्विवचने
द्विवचने कथं वक्तव्यं जन्मनि
जन्मनि जन्म जन्मनि जन्मानि
नपुंसकलिङ्गपदमस्ति इत्यतः द्वितीयाविभक्तिरूपाणि अपि एवमेव भवन्ति जन्म जन्मनि जन्मानि जन्म जन्मनि जन्मानि नपुंसकलिङ्गपदम् अस्ति नकारान्तप्रातिपदिकम् अस्ति इदानीं वदतु
तर्हि पूर्वजन्मन् पूर्वजन्मानि तत्र समासः अस्ति पूर्वस्य पूर्वस्य जन्म
न
षष्ठि न किम्
अत्र रमेश महोदय भवान् वदतु पूर्वजन्मानि इति बहुवचनरूपं दत्तमस्ति एकवचनं द्रष्टुमिच्छामश्चेत् पूर्वजन्म इति समस्तपदं भवति समस्तपदं पूर्वजन्म तस्मिन् पदे
कस्मिन् जन्म
न
अत्र पूर्व इति पूर्वजन्म तत् केवलम् अव्ययीभावसमासे एकम् अस्ति तत्र न तत्र प्रायः कर्मधारे एव अस्ति
जन्म कीदृशम् इति प्रश्ने सति अत्र सामानाधिकरण्यमस्ति कर्मधारयसमासः अस्ति पूर्वदेशः पूर्वपक्षः पूर्वगङ्गा इत्यादिषु पदेषु कर्मधारयसमासः भवति पूर्वं जन्म इति विग्रहवाक्यं वक्तव्यं भवति कर्मधारयसमासः एव अस्ति कर्मधारयसमासस्य प्रसङ्गे विशेषणविशेष्यभावः दृश्यते उत्तमबालकः इति पदं पश्यामश्चेत् तस्मिन् पदे विशेषणपूर्वपदकर्मधारयसमासः अस्ति उत्तमबालकः इव पूर्वजन्म इति पदं तत्पुरुषसमासस्य एकः प्रभेदः एव कर्मधारयसमासः तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रमस्ति तत्पुरुषः समानाधिकरणः कर्मधारयः कर्मधारयसमासस्य प्रसङ्गे विशेषणविशेष्यभावः दृश्यते बालकः कीदृशः उत्तमः एवमेव अत्र जन्म कीदृशं पूर्वं जन्म किन्तु एकम् अन्यत् पदमस्ति विशिष्टं पदं पूर्वकायः इति एकं पदमस्ति महोदय भवान् स्मारयतु पूर्वकायः इत्यत्र वैशिष्ट्यमस्ति
पूर्वस्य
फ्रंट पार्ट ऑफ द बॉडी वदतु
पूर्वस्य कायः इति एव अस्ति
पूर्वं कायस्य इति विग्रहवाक्यं वक्तव्यमस्ति तत्र वैशिष्ट्यं किं तत्र एकदेशीसमासः नाम्ना एकः समासः अस्ति केचन जनाः प्रथमातत्पुरुषसमासः इति वदन्ति किन्तु तस्य नाम एकदेशीसमासः तत्र वैशिष्ट्यमस्ति यत्र यत्र अवयव अवयवीभावसम्बन्धः अस्ति तत्र एव एकदेशीसमासः भवति पूर्वं कायस्य इति विग्रहवाक्यं भवति पूर्वकायः इति समस्तपदं भवति तद्भिन्नम् अत्र भिन्नम् अस्ति अत्र कर्मधारयसमासः इति मम अवगमनं पूर्वजन्म इति समस्तपदमस्ति रूपाणि कथं वदामः पूर्वजन्म पूर्वजन्मनि पूर्वजन्मानि स्मरामि रूपं कथं साधनीयं स्मृधातोः रूपमेव स्मरामि महोदय भवान् साधयतु भुवादिगणे अस्ति
स्मृधातुः भुवादिगणे अस्ति तर्हि स्मरामि इत्युक्ते मिप् इति प्रत्ययः आगच्छति स्मृयोगः मिप् इति स्थितौ सार्वधातुकम् अस्ति तिङ् अस्ति कर्तरि अर्थे अस्ति तर्हि शप् विकर्णप्रत्यय आगच्छति स्मृयोगः शप् योगः मिप् इति स्थितिः भवति शप् अत्र अकारः एव तिष्ठति शप् अपि पित् अस्ति अपि च सार्वधातुकमस्ति तिंशत् सार्वधातुकमिति सूत्रेण तर्हि स्मृयोगः शप् स्मृयोगः तत्र गुण भवति केन सार्वधातुक अर्धधातुकयोः इति सूत्रेण स्मृ रेफस् ऋकारस्य स्थाने अकारः आगच्छति तत्पश्चात् उरनृपरः इति स्मर् इति अङ्गं सिद्ध्यति स्मर् योगः अयोगः मि इति स्थिति स्मर योगः मि तत्र
अतो दीर्घो ययि
ययि मकारः ययि अस्ति तर्हि अतो दीर्घो ययि इति सूत्रेण तत्र दीर्घ भवति स्मरामि इति रूपं सिद्ध्यति
उत्तमम् अत्र ययादि सार्वधातुकप्रत्ययः अस्ति अतो दीर्घो यञि इति सूत्रेण तत्र दीर्घत्वं सिद्ध्यति अन्तिमवर्णस्य दीर्घादेशः भवति अत्र इति इति अव्ययस्य प्रयोजनं किम् इति प्रश्ने सति अन्यजनस्य वचनम् अत्र दत्तमस्ति इति इति अव्ययस्य प्रयोगः कृतः किम् इति मकारान्तप्रातिपदिकम् किम् इति मकारान्तप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि वदतु महोदय भवान्
कः कौके तादृशं वा कः कौके कं कौकान् केन काव्यां कैः कस्मै काव्यां केभ्यः कस्मात् काव्यां केभ्यः कस्य कयोः केषां कस्मिन् कयोः केषु काके काः कां के काः कया काव्यां काभिः कस्यै काव्यां काभ्यः कस्याः काव्यां काभ्यः कस्याः काव्यां कस्याः कयोः कासां कस्यां कयोः कासु किं के कानि किं के कानि तत्सर्वं
पुंलिङ्गवत् बहु सम्यक् धन्यवादाः किम् इति मकारान्तप्रातिपदिकमस्ति मकारान्तप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः प्रश्नार्थकपदम् इदं महोदय भवान् पठतु चतुर्थः अभ्यासः अस्ति किञ्चित् अधोभागे पठतु
चतुर्थभ्यासः यत् इति पदम् उपयुज्य वाक्यानि रचयत यत् इति पदमस्ति यत् इति पदं पदम् इति नपुंसकलिङ्गम् इति अव्ययम् उपयुज्य इति ल्यबन्तपदम् युज्युधातु उप इति उपसर्गः तत्र वाक्यानि वाक्यमिति पदस्य बहुवचनं द्वितीयाविभक्ति बहुवचनं रचयत इति लोट्लकार मध्यमपुरुष बहुवचनं
अत्र पदम् उपयुज्य इत्यपि लेखितुं शक्यते खलु
पदमुपयुज्य स तर्हि वर्णमेलनं कृत्वा कर्तुं शक्यते
उत्तमं प्रथमं वाक्यं
परोपकाराय एव मम जीवनं सज्जनाः चिन्तयन्ति सज्जनाः चिन्तयन्ति यत् परोपकाराय एव मम जीवनं
परोपकाराय इत्यस्मिन् स्थाने अन्यत् पदं योजयित्वा वदतु
अन्यत् पदम् इत्युक्ते न
परोपकारार्थं
परोपकारार्थं
भवती श्रुतवती खलु भगिनी परोपकारार्थम् इदं शरीरम्
आम् कोविदस्य पाठे
परोपकारार्थम् इदं शरीरम् इदम् इति मकारान्तप्रातिपदिकमेव भारतस्य प्रसङ्गे एकः श्लोकः अस्ति महाभारतस्य प्रसङ्गे एकः श्लोकः अस्ति प्रसिद्धः श्लोकः अष्टादशपुराणेषु व्यासस्य वचनद्वयम् परोपकारः पुण्याय पापाय परपीडनम् इति श्लोकः अष्टादशपुराणेषु व्यासस्य वचनद्वयं परोपकारः पुण्याय पापाय परपीडनम् इति महोदय भवान् वदतु जीवनम्
जीवनम् इति ल्युडन्तपदमस्ति जीव इति धातुतः आगच्छति इति चिन्तयामि
लौकिकधातुः जीव अस्ति
लौकिकधातु जीव् अस्ति ल्युट् इति अत्र अण इति एव अण इति एव अवशिष्यते तत्र युवरुणकौति सूत्रेण युकारस्य स्थाने अण आदेशः भवति अण आदेशः भवति जीवन इति ल्युट् ल्युटि च इति वा ल्युट् च इति वा ल्युट् च इति सूत्रेण नपुंसकं लिङ्गम् एव भवति तत्र ल्युडन्तपदस्य तर्हि जीवनम् इति रूपं सिद्ध्यति
ल्युडन्तमस्ति जीवनं जीवितं तत् कीदृशं
तान्तपदमस्ति
जीवितुम् इति
तुमुन्नन्तपदमस्ति
उत्तमम् अत्र सज्जनः इति लिखितमस्ति समस्तपदं विग्रहवाक्यं कथं वक्तव्यं
सत् जनः सत् सत् सति
सत्ययोगः जनः इति एव लिखित्वा सन्धिकार्यं करणीयं सत्ययोगः जनः इति एव लेखनीयम् इत्युक्ते यदा वयं समस्तपदस्य निर्माणं कुर्मः तदा द्वयोः सुबन्तयोः प्रातिपदिकम् एव स्वीकरणीयम् अत्र प्रातिपदिकमस्ति सत् सत्ययोगः जनः इत्यत्र प्रातिपदिकं जन सत्ययोगः जन इति लिखित्वा समस्तपदस्य रूपसिद्धिः करणीया तत्र अश्च्युत्वसन्धिकार्यमस्ति किन्तु विग्रहवाक्यं कथं वक्तव्यम्
सञ्च असौ जनः च वा
सञ्च असौ जनः च एषः जनः च असौ अथवा एषः द्वयोः अर्थः समानः सञ्च
द्वन्द्वः अस्ति किं भगिनि
सञ्च एषः जनः च इति कथनेन अत्र विशेषणपूर्वपदकर्मसमासः अस्ति द्वन्द्वसमासः अस्ति चेत् तत्र पदार्थद्वयं स्यात् अत्र पदार्थद्वयं नास्ति एकः एव पदार्थः जनः इति एव पदार्थः अस्ति सञ्च एषः जनः च जनः इत्यस्य विशेषणं भवति सन् इति पदम् अत्र एकः एव पदार्थः अस्ति एकस्मात् अधिकाः पदार्थाः सन्ति चेत् द्वन्द्वसमासः भवति रामलक्ष्मणौ इव अन्यानि पदानि
यक्षरक्ष
यक्षराक्षसाः धर्मार्थकाममोक्षाः एकस्मात् अधिकाः पदार्थाः स्युः भवती एव पठतु दर्शना भगिनी द्वितीयं वाक्यम्
हितं मनोहारी च वचः दुर्लभं भारवेः वचनम् अस्ति भारवेः वचनम् अस्ति हितं मनोहारी च वचः दुर्लभम् तर्हि अत्र हितं नपुंसकलिङ्गं पदं प्रथमा विभक्तिः मनोहारी तस्य पदस्य विशेषणम् अपि च वचः अपि वचः अपि प्रथमा विभक्तिः एकवचनं दुर्लभं तस्य वचः इति पदस्य विशेषणम्
अस्मिन् वाक्ये हितं मनोहारि च वचः दुर्लभम् इत्यत्र सर्वेषां पदानां लिङ्गं वदतु
हितं हितं नपुंसकलिङ्गे एव अस्ति
वचः इति विशेष्यमस्ति विशेषणानि अत्र दत्तानि वचः इति शब्दस्य प्रातिपदिकं किम् अस्ति
वचस्
वचस् रूपाणि वदतु
वचस् वचः मनः मनः मनसि मनसि वचसि वचांसि
वचः वचसि वचांसि वचः वचसि एवं रूपाणि भवन्ति मनः मनसि मनांसि मनांसि एवं रूपाणि वक्तव्यानि अत्र वचः इति सकारान्तप्रातिपदिकमस्ति वचस् इति प्रातिपदिकमस्ति तत्र असुन् इति एकः उणादिप्रत्ययः अस्ति मनः इति पदस्य प्रसङ्गे अपि असुन् इति एकः प्रत्ययः अस्ति सर्वधातुभ्यो असुन् तेन सूत्रेण उणादिप्रत्ययः असुन् इति प्रत्ययः विहितः भवति तेन अत्र सकारान्तप्रातिपदिकं सिद्ध्यति नपुंसकलिङ्गपदं तस्य विशेषणानि भवन्ति अन्यानि पदानि हितं मनोहारि दुर्लभं
सत्यं दुर्लभं तु द्वौ द्वयोः शब्दयोः कृते अस्ति
हितं दुर्लभं मनोहारि इमानि त्रीणि पदानि वचः इति शब्दस्य विशेषणानि भवन्ति भारविः इति मुनिः शब्दवत् इकारान्तपुंलिङ्गपदमस्ति भारवेः वचनम् इत्यत्र समासं कुर्मः चेत्
भारवेः वचनं भारवि वचनं
रमेश महोदय भवान् वदतु हितम् इति कीदृशं पदम्
हितम् इति क्रान्तपदम् अस्ति इति चिन्तयामि
क्रान्तपदम् अस्ति तत्र धातोः रूपं जानाति वा धा धातोः रूपमपि हित अस्ति हि इति धातुः अपि अस्ति धा धातोः रूपमपि हित अस्ति तत्र सूत्रमस्ति दधातेर्हि इति सूत्रेण कित्नित् प्रत्यये परे धा धातोः प्रसङ्गे हि आदेशः भवति तेन हित इति रूपं सिद्ध्यति धा धातुः धारणपोषणयोः इत्यस्मिन् अर्थे अस्ति धा धातुः जुहोत्यादिगणे अस्ति इति कारणतः तस्य लटीरूपं दधाति ददाति भिन्नं दधाति भिन्नं धा धातोः रूपं हित इति भवति अत्र नपुंसकलिङ्गे मनोहारी इति पदं दत्तमस्ति पुंलिङ्गे वदतु
मनोहारी
मनोहरः
मनोहरः इति भिन्नं पदं किन्तु मनोहारिन् इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः रमेश महोदय त्रिषु लिङ्गेषु रूपाणि वदतु
मनोहारी इति मनोहारी मनोहारिणौ मनोहारिणः इति प्रथमाविभक्ति पुल्लिङ्गपदं पदानि सन्ति.
इत्युक्ते पुंलिङ्गपदे मनोहारी इत्यत्र दीर्घ ईकारः श्रूयते, किन्तु नपुंसकलिङ्गे ह्रस्व ईकारः अस्ति. अत्र नपुंसकलिङ्गपदं दत्तमस्ति, वचः इत्यस्य विशेषणमस्ति इति कारणतः नपुंसकलिङ्गे तद्रूपं दत्तमस्ति. मनः हर्तुं शीलम् अस्य अस्ति, मनः हर्तुं शीलम् अस्य इति विग्रहवाक्यं भवति. प्रातिपदिकमस्ति मनोहारिन्, पुंलिङ्गे मनोहारी, नपुंसकलिङ्गे मनोहारि इति भवति, स्त्रीलिङ्गे
मनोहारिणी इति भवति, मनोहारिणी इति भवति,
मनोहारिणी इति भवति. तत्र णत्वं किमर्थं?
णत्वमपि भवति, अट्कुप्पङ् नुम्यवायपि इति सूत्रेण भवति.
उत्तमं, मनोहारिणी इति स्त्रीलिङ्गे भवति. इदं वाक्यं कुतः उद्धृतं, कुतः स्वीकृतम्?
बारवेः किराटार्जुनीयतः इति चिन्तयामि.
किरातार्जुनीयम् इति काव्यात् उद्धृतं वाक्यम् इदं, भारवेः किरातार्जुनीयं, हितं मनोहारि च वचः दुर्लभं. भवन्तः श्रुतवन्तः इति भाति एकः अन्यः श्लोकः अस्ति, सुलभाः पुरुषा राजन् सततं प्रियवादिनः, अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः इति श्लोकः अस्ति. तदपि बहु सम्यक् श्लोकः अस्ति. पुनः वदामि, सुलभाः पुरुषा राजन् सततं प्रियवादिनः, अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः. तत्र अन्वयः कः इत्युक्ते, हे राजन्, प्रियवादिनः पुरुषाः सततं सुलभाः, किन्तु अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः. इट् इस् ईज़ी टु फैण्ड् मेन् हू स्पीक् प्लेसेण्ट् वर्ड्स्, हू स्पीक् प्लीजिङ्ग् वर्ड्स. इट् इस् ईज़ी टु फैण्ड् सच् पीपल्, बट् इट् इस् डिफिकल्ट् टु गेट् ए स्पीकर् एण्ड् ए लिसनर् हू यूस् वर्ड्स् दट् आर् नाट् प्लेसेण्ट्, अन्प्लेसेण्ट् टु अवर् इयर्स्, बट् दे आर् बेनिफिशियल् इन् अवर् लैफ् इति श्लोकेन उच्यते. अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः. रामायणम् इति भाति, तस्य अर्थः एव अत्र अस्ति. हितं मनोहारि च वचः दुर्लभं, दुर्लभः इति लब्धधातोः रूपम् इति भाति, दुःखेन लभ्यते. दुर्लभः इत्युक्ते रेर् इति अर्थः अस्ति, अन्कामन्, इट्स् नाट् ईज़ी टु फैण्ड्.
कष्टम् अपि अस्ति वा भगिनि?
रेर् इति भिन्नं खलु, अन्कामन्. हितं मनोहारि च वचः दुर्लभम्, इट्स् नाट् ईज़ी टु फैण्ड् सच् वर्ड्स्. दर्शना भगिनी, भवती वदतु अस्मिन् प्रसङ्गे किं ज्ञातव्यं?
यत् सत्यमेव वदनीयम् इति, वक्ता वक्तारः अपि च श्रोतारः न लभ्यन्ते चेदपि सत्यमेव वदनीयम् इति.
रमेश् महोदय, भवान् किं चिन्तयति? हितं मनोहारि च वचः दुर्लभम्.
तत्र दत्तमस्ति यद् हितम् अस्ति तद् मनोहारि न भवति प्रायः, यद् मनोहारि अस्ति तद् हितं न भवति. तर्हि हितम् अपि च मनोहारि यद् अस्ति तद् दुर्लभम् एव, तादृशवचः दुर्लभम् एव.
बहु सम्यक्, धन्यवादाः. तथा वक्तव्यं, यद् हितमस्ति तद् मनोहारि कदाचित् न भवति, यद् मनोहारि अस्ति तद् हितं न भवति, तादृशवचः दुर्लभं. वचनं भवान् वदतु.
वचनम् इति लुडन्तपदमस्ति, वच् इति धातु अस्ति, वच् योगः ल्युट्, वचनम् इति रूपं सिद्ध्यति.
वचनम् इति ल्युडन्तपदमस्ति. वच् धातुः अपि सम्प्रसारणी धातुः. वच् धातोः कर्मणि लट् रूपं किमस्ति?
उच्यते.
उच्यते इति अस्ति. उक्त्वा, उक्तवान्, उक्तम् इत्यादीनि रूपाणि सन्ति. तत्र धातुः वच् अस्ति, कित् प्रत्यये परे सम्प्रसारणं भूत्वा उक्त्वा, उक्तवान्, उक्तम्, उक्तिः, उच्यते इत्यादिषु पदेषु कित्वात् सम्प्रसारणम्. दर्शना भगिनी, भवती पठतु अग्रिमं वाक्यं.
सत्यं वद गुरुः शिष्यम् अकथयत्. गुरुः शिष्यम् अकथयत् यत् सत्यं वद.
अकथयत् इति कीदृशं पदम्?
लङ्लकारः अस्ति. प्रथमा लकारः.
सूर्यकुमारी भगिनी भवती वदतु, धातुः चुरादिगणे अस्ति, धातोः मूलरूपं कथा अस्ति, कथा इत्यत्र अकारलोपः भवति, केन सूत्रेण? कथयति इति रूपं जानीमः खलु, कथयति.
कथायोगः निच्छि.
कथा इति धातुः अस्ति, कथा इत्यत्र अकारः अस्ति अन्ते, सः अकारः अनुनासिक अकारः नास्ति. चुरादिगणे एतादृशं कार्यं भवति, अतो लोपः इति सूत्रेण निच् इति अर्धधातुकप्रत्यये परे, अतः लोपः भवति, तेन कथ् भवति, कथ् योगः निच् परे कथि इति निजन्तधातुः भवति. निच् इत्यस्मात् इकारः आगतः. तत्र एकं विशिष्टं सूत्रं स्मर्तव्यं कथ धातोः प्रसङ्गे. कथ, गण एतादृशधातवः चुरादिगणे सन्ति, एतेषाम् अन्ते अकारः अस्ति. एते धातवः उपदेशावस्थायाम् एव अकारान्तधातवः, किन्तु सः अकारः न तिष्ठति. विशिष्टसूत्रेण अकारस्य लोपः भवति, अतो लोपः इति सूत्रेण निच् प्रत्यये परे इदं कार्यं भवति, तेन कथ् इति रूपं सिद्ध्यति. वस्तुतः अजन्तधातुः एव, किन्तु णिच् परे अकारलोपः भूत्वा कथि इति नूतनधातोः निर्माणं भवति. पश्चात् अन्यानि कार्याणि भूत्वा कथयति इति रूपं सिद्ध्यति. चतुर्थं वाक्यं सूर्यकुमारी भगिनी वदतु.
कुत्र प्रदर्शनं? मां मा पृच्छ. कुत्र प्रदर्शनं? मां मा पृच्छ. कुत्र अस्ति न जानामि.
आदौ वाक्यस्य परिवर्तनं कृत्वा वदतु.
मां मा पृच्छ यत् कुत्र प्रदर्शनं. ओ, अर्जुनः वदति वा?
सामान्यं वाक्यमेव. प्रदर्शनं कुत्र इति मां मा पृच्छ इति एकः वदति. डोण्ट् आस्क् मी वेर् द एक्सिबिशन् ईस्, वेर् द प्रदर्शनम् ईस्.
मां मा पृच्छ कुत्र अव्ययमस्ति. प्रदर्शनं लिडन्तम् अस्ति.
प्रदर्शनम् इति कथं साधनीयम्?
प्रायोगः दृष् योगः
ल्युट्
लिट् लिट् अन भवति. अन अर्धधातुकप्रत्यय. दृष् दर्श् भवति. दर्शयोगः अन दर्शनं भवति.
उत्तमम्. माम् इति कीदृशं पदम्?
अस्मत्शब्दस्य द्वितीय एकवचनं.
पृच्छ
पृच्छ क्तान्तपदम्.
पृच्छ इति पदं कीदृशं पदं? तिङन्तपदम्.
पृच्छ धातुतः
पृच्छ
धातुतः चकारादेशः भवति.
पृच्छ इति रूपं कीदृशं?
पृच्छ
पृच्छ एव.
पृच्छ पृच्छ सम्प्रसारणं भवति. पृच्छ पृच्छ भवति. पृच्छयोगः सम्प्रसार कित् प्रत्यय अस्ति भगिनी? क्ता
लोट्लकार.
दर्शना भगिनी भवती वदतु, इदं रूपं किं रूपम्?
लोट्लकारः मध्यमपुरुषः.
एकवचनम्
एकवचनं एकवचनं.
पृच्छतु पृच्छतां पृच्छन्तु. पृच्छ पृच्छतं पृच्छ
पृच्छानि पृच्छाव पृच्छामः.
रूपाणि भवन्ति. मध्यमपुरुष एकवचनरूपं पृच्छ. तत्र किमर्थं सम्प्रसारणम्? रमेश महोदय भवान् वदतु. धातुः तु पृच्छस्ति.
अपित् अस्ति. सेहे अपित् च इति अपित् अस्ति. तत् हि यत्र आदेशः भवति तिप् स्थाने तत्र हि आदेशः भवति अपित् अपि भवति इति अपित् गित्वत् कार्यं करोति तर्हि सम्प्रसारणं भवति
तस्मात् पूर्वं धातुः तुदादिगणे अस्ति अत्र पृच्छ इति रूपम् अस्ति लोट्लकाररूपं लोट्लकारः सार्वधातुकलकारः गणचिन्तनं करणीयं प्रच्छधातुः तुदादिगणे अस्ति तुदादिगणे तुदादिभ्यः शः इति सूत्रेण श्याविकरणप्रत्ययः आयाति वदतु
श्याविकरणप्रत्ययः अस्ति तद् तत्र शविकरण श यदस्ति तद् सार्वधातुकम् अस्ति अपित् अपि अस्ति
सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते सम्प्रसारणकार्यमपि भवितुं शक्नोति
तर्हि तत्रैव भवति वा तत् पश्चात् हि यदा आगच्छति तत्र न भवति वा तत्र हि कस्य स्थाने आगच्छति अस्थाने अस्तु हा हि इति यदस्ति तद् अपित् अस्ति तत् न वक्तव्यं हा शब्देन यद् श अस्ति तेन एव सम्प्रसारणं भवति शकारस्य यद् अकारः अस्ति तेन एव सम्प्रसारणं भवति हि इति यदस्ति तेन सम्प्रसारणं न भवति मध्ये अ आगच्छति शविकरणप्रत्यये आगच्छति तर्हि पृच् योगः प्रच् योगः अयोगः हि इति स्थितिः एव भवति खलु तर्हि यदि अपित् अस्ति पित् अस्ति हि तस्य किमपि प्रयोजनं न भवति केवलं यद् अकारस्य अस्ति अकारः सार्वधातुकम् अस्ति अपि च पित् अपित् अस्ति सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् कार्यं करोति तर्हि पृच् प्रच् स्थाने पृच् इति भवति
इति मम अवगमनमस्ति दृश्य
लोपः भवति खलु
सूत्रेण
हीलोपः भवति किमर्थं चेत् तुदादिगणे अदन्तमङ्गं सिद्ध्यति यत्र यत्र अदन्तमङ्गं सिद्ध्यति तत्र तत्र अतोहेः इति सूत्रेण हि प्रत्ययस्य लुक् भवति अतः पृच्छ इति रूपमेव भवति किन्तु ज्ञाधातोः प्रसङ्गे अदन्तमङ्गं नास्ति इति कारणतः जानीहि इति रूपं सिद्ध्यति एवमेव अदादिगणे अपि अदन्तमङ्गं न सिद्ध्यति इति कारणतः तत्र हि प्रत्ययस्य लोपः न भवति अतोहेः सूत्रस्य कार्यम् अदादिगणे अपि न भवति तदर्थमेव पाहि इति रूपं भवति दा अस्ति चेत् देहि इति रूपं भवति जुहोत्यादिगणे पाधातुः अदादिगणे अस्ति भुवादिगणे अपि अस्ति भुवादिगणीयपाधातोः रूपं पिबति किन्तु अदादिगणीयपाधातोः रूपं पाति रक्षणं करोति पाति पाहि इत्यत्र रक्षणं करोति इति अर्थः अस्ति तत्र हि प्रत्ययस्य लुक् अदादिगणे न भवति किमर्थं चेत् तत्र अदन्तमङ्गं नास्ति केवलं चतुर्षु गणेषु एव अदन्तमङ्गं सिद्ध्यति अस्तु दृश् धातोः ल्युडन्तरूपं दर्शनं लटिरूपं पश्यति तत्रापि एकं सूत्रमस्ति दृश् धातोः कर्मणि लट् दृश्यते अस्ति सूरिकुमारी भगिनी भवती वदतु दृश् धातोः परं णिच् योजनेन णिजन्तरूपं किं भवति
दर्शि भवति
दर्शि लटि रूपं
दृश्यति
दर्शयति
निजन्त दर्शयति भवति
दर्शयति भवति खलु अन्तिमं वाक्यं रमेश महोदय भवान् करोतु
उत्तिष्ट जाग्रत स्वामिनः विवेकानन्दस्य उद्घोषः स्वामिनः विवेकानन्दस्य उद्घोषः यत् उत्तिष्ट जाग्रत उत्तिष्ट इति
अत्र किं लिखितमस्ति
उत्तिष्ठत उत्तिष्ठत उत्तिष्ठत
उत्तिष्ठ उत्तिष्ठत द्वयोर्मध्ये भेदः कः
उत्तिष्ठ इत्युक्ते लोट्लकारः अस्ति उत्तिष्ठत इत्युक्ते लोट्लकारः बहुवचनमस्ति
मध्यमपुरुषे एकवचनमस्ति
उत्तिष्ठत बहुवचनमस्ति
लोट्लकारः मध्यमपुरुष बहुवचनम् अत्र दत्तमस्ति उत्तिष्ठत इति वदतु
उत्तिष्ठत जाग्रत अपि जागृ धातोः मध्यमपुरुष बहुवचनरूपं लोट्लकार बहुवचनरूपम् अस्ति स्वामिन् इति शब्दस्य षष्ट्यन्तं षष्टियन्तं पदमस्ति स्वामिनः
द्वितीयविभक्तिपर्यन्तं रूपाणि वदतु.
स्वामी स्वामिनौ स्वामिनः स्वामिनं स्वामिनौ स्वामिनः स्वामिना स्वामिभ्यां स्वामिभिः.
स्वामिनः इति रूपं बहुत्र आयाति खलु.
प्रथमाविभक्ति बहुवचनं, द्वितीयाविभक्ति बहुवचनम्, अपि च पञ्चमी षष्टिविभक्ति एकवचनं, तत्र सर्वत्र आगच्छति.
स्वामी स्वामिनौ स्वामिनः स्वामिनं स्वामिनौ स्वामिनः एवं रूपाणि भवन्ति. नकारान्तप्रातिपदिकम् अस्ति. विवेकः इति कीदृशं पदम्?
सनन्तपदम् अस्ति वा?
न, घञ् प्रत्ययान्तपदम् अस्ति.
घञ् प्रत्ययान्तं विवेकः. विवेकः वि इति उपसर्गः अस्ति वा?
उपसर्गः अस्ति वि.
अस्तु.
विच् धातोः रूपम् अस्ति. विच् धातुः अपि रुधादिगणीयधातुः एव. विचिर् धातोः अर्थः कः जानाति वा? विच् धातोः
विवेचनं करणीयम् इत्युक्ते स्प्लिट्, पृथक्करणं.
पृथक्करणं, पृथक् भावे, सेपरेटिङ्ग्. विवेकः इत्युक्ते
सेपरेशन्
विज्डम्. विज्डम् कथम् आयाति
तत्र उपसर्गस्य कृते?
अत्र विवेकः इति पदमस्ति, तत्र धातुः अस्ति विच्. विच् इति लौकिकधातुः. उपदेशावस्थायां तस्य रूपं विचिर् इरः इति संज्ञावाच्य इति वार्तिकेन इर् शब्दसमुदायस्य इति संज्ञा भवति. विच् इति लौकिकधातुः. विच् धातोः परं घञ् प्रत्ययस्य योजनेन वेकः इति रूपं भवति. तत्र सन्धिकार्याणि सन्ति. विच् इति धातुः इदुपधधातुः अस्ति. उपधायां ह्रस्व इकारः अस्ति. घञ् इति आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्ययं निमित्तीकृत्य लघु इगुपधधातौ गुणकार्यं भूत्वा विच् वेच् भवति. तत्र सन्धिकार्यं भूत्वा वेकः इति रूपं सिध्यति. अत्र वि उपसर्गः अस्ति. अयं धातुः रुधादिगणे अस्ति. रुधादिगणे अस्ति इति कारणतः विनक्ति इति रूपं सिध्यति. रुधादिगणे कीदृशं कार्यं भवति महोदय?
रुधादिगणे श्नम् इति विकरणप्रत्ययः भवति. अपि च श्नसोरल्लोपः इति सूत्रेण अकारस्य श्नम् अवशिष्ट.
श्नशोरल्लोपः इति सूत्रं विनक्ति इत्यत्र कार्यं करोति वा?
विनक्ति विनक्ति तत्र न करोति.
नकारोत्तराकारः तत्र तिष्ठति. श्नशोरल्लोपः इति सूत्रम् अपित् प्रत्ययपरे एव, अपित् सार्वधातुकप्रत्ययपरे एव कार्यं करोति. विनक्ति इत्यत्र प्रथमपुरुषे एकवचनरूपं, तत्र तिप् प्रत्ययः पित् अस्ति इत्यतः तत्र श्नशोरल्लोपः इत्यस्य कार्यं नास्ति खलु?
नास्ति.
इत्युक्ते नकारोत्तराकारः तत्र तिष्ठति. विनक्ति इति रूपं सिध्यति. पृथग् भावे इत्यस्मिन् अर्थे अयं धातुः अस्ति. उद्घोषः इत्यत्र किं किम् अस्ति?
उद्घोषः उद् इति उपसर्गः अस्ति. उत् इति उपसर्गः अस्ति. घोषः इति तदपि गञ्यन्तपदमेव अस्ति वा?
घुष् इति धातुः.
घुष् इति धातुः गयन्तं घञ् इति प्रत्ययेन सार्व पुगन्तलघुपदस्य इति सूत्रेण घुष् घोष् भवति. घोषः इति रूपं सिद्ध्यति.
उद्घोषः. विवेकः इत्यस्य अर्थः कः इति अहं दृष्टवती, अतः वदन्ती अस्मि. यादार्ध्येन वस्तुस्वरूप अवधारणं. यादार्ध्येन वस्तुस्वरूप अवधारणम् एव विवेकः.
तर्हि यद् यथार्थम् अस्ति, यद् यथार्थं नास्ति, तस्य विवेकः यस्मिन् अस्ति सः एव विवेकः. विवेकः अपि खलु.
विवेकः अपि. यस्य अथवा यस्मिन् विवेकः अस्ति सः
विवेकी.
तादृशं शीलं यस्मिन् अस्ति सः विवेकी. विवेकी इत्यत्र प्रातिपदिकं किम्?
विवेकिन्.
विवेकिन्
विवेकिन् अस्ति. भवान् श्रुतवान् खलु, एकः श्लोकः अस्ति पञ्चतन्त्रम् इत्यस्मिन्, यवनं धनसम्पत्तिः प्रभुत्वम् अविवेकिता एकैकमपि अनर्थाय किमु तत्र चतुष्टयम्. इत्युक्ते अस्मिन् अविवेकिता इति पदं दत्तमस्ति. यवनं धनसम्पत्तिः प्रभुत्वम् अविवेकिता एकैकमपि अनर्थाय किमु तत्र चतुष्टयम्. तस्य अर्थः कः?
यवनम् अविवेकता धन किम् उक्तवती
धनसम्पत्तिः
धनसम्पत्तिः
प्रभुत्वं
प्रभुत्वम् एकमेकम् अपि
अनर्थकारकम्
अनर्थकाः अस्ति तर्हि यदि तत् चतुष्टयं यत्र भवति तत्र किं वक्तव्यम् इति एव
एकैकमपि अनर्थाय किमु तत्र चतुष्टयम् इति पञ्चतन्त्रे सः श्लोकः अस्ति उद्घोषः इति पदं दत्तमस्ति घुष् धातोः ल्युडन्तरूपमेव घोषणम् उद्घोषणम् इति रूपम् उत्तिष्ठत इति रूपं दत्तमस्ति नवरूपाणि वदतु महोदय
उत्तिष्ठतु उत्तिष्ठता उत्तिष्ठताम् उत्तिष्ठन्तु उत्तिष्ठ उत्तिष्ठ भवतु भवता उत्तिष्ठतात् उत्तिष्ठताम् उत्तिष्ठत
मध्यमपुरुष द्विवचनं किम्
उत्तिष्ठतं भवतु भवतात् भवतां भवन्तु भव भवतात् भवतं भवत भवत भवतं भवति उत्तिष्ठतम् उत्तिष्ठत उत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम
उत्तिष्ठानि इत्यत्र णत्वं नास्ति किमर्थम्
उत्तिष्ठकारः मध्ये अस्ति खलु उत्तिष्ठानि उत्तिष्ठा अस्ति मध्ये अटि नास्ति कुप्पी
उत्तमम् अत्र ठकारः अस्ति ठकारः बाधकवर्णः टवर्गीयव्यञ्जनमस्ति ठ महाप्राणठकारः बाधकवर्णः अस्ति इति कारणतः णत्वं न भवति उत्तिष्ठानि इति एव रूपं भवति
उत्तिष्ठतु
भवती श्रुतवती खलु यदा वयं मन्त्रान् शृणुमः उत्तिष्ठन्तु भूतपिशाचाः इति लिखितमस्ति
तर्हि मा उत्तिष्ठन्तु मा उत्तिष्ठतु इति वदनीयम्
अहं श्रुतवती उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः एवं मन्त्रः इति पुंलिङ्गपदमेव महोदय भवान् जानाति वा इदं वाक्यं कुतः उद्धृतमस्ति कस्मात् स्वीकृतमस्ति
तत् विवेकानन्दस्य प्रायः यद् न्यूयार्क् मध्ये दत्तं तद् तद्वा तत्र
उपनिषदः वाक्यम्
उपनिषदवाक्यमस्ति वा तत्
कठोपनिषदि अस्ति कठोपनिषदः वाक्यमस्ति सम्पूर्णतया ज्ञातुमिच्छामश्चेत् उत्तिष्ठता जाग्रता प्राप्यवरान् निबोधत क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथः तत् कवयो वदन्ति इति कठोपनिषदि अस्ति कठोपनिषदः वाक्यमेतत् प्रथमाध्यायस्य तृतीयवल्यां चतुर्दशश्लोकः प्रथमाध्यायस्य तृतीयवल्यां चतुर्दशश्लोकः उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथः तत् कवयो वदन्ति पथः दुर्गम् दुर्गम् इत्युक्ते दुर्गः दुर्गम् इति कथनेन
नाट् ईज़ी नाट् गोएबल् ऐ थाट् अयोग्य इति
डिफिकल्ट् टु एटे
दुर्गं डिफिकल्ट् टु एटे
महोदय वदतु
तदेव महोदय दुर्गम् इत्युक्ते डिफिकल्ट् टु गेट् डिफिकल्ट् टु गो डिफिकल्ट् टु ओब्टेन्
दुर्गं पथः इति लिखितमस्ति पथः इति नपुंसकलिङ्गपदम् अतः दुर्गं पथः तत् पथः कीदृशं दुर्गं पथः तत् कवयो वदन्ति पण्डिताः वदन्ति पण्डिताः किं वदन्ति इट्स् वेरि डिफिकल्ट् पात् अस्य आङ्ग्लभाषानुवादं वदामि अरैस् अवेक् फैण्ड् औट् द ग्रेट् वान्स् and learn from them
na no, no, don't stop api asti kalu awake arise
stop not till your goal is reached uttishthata jagrata prapya varan nibodhata kshurasya dhara nishita kshurasya dhara ityukte razor's edge vedanta margah
durlabham asti
durlabhah it's not that easy iti tatra arthah asti
satyam
वदतु
न केवलं वेदान्तस्य परन्तु संस्कृतभाषायाः मार्गः कठिनः
द पात् इस् वेरि डिफिकल्ट् द सेजस् सेस् लैक् देट् अरैस् अवेक् एण्ड् फैण्ड् औट् द ग्रेट् गुरूस् and learn of them, because this marga is like as sharp as a razor's edge. Vadatu
parantu na anyas pantha vidyate ayanaya vidyate ayanaya.
Which dhatoho rupameva vekaha, which dhatoho ludantam kim bhavati
vechanam,
vi upasarga asti chet
vivechanam.
Vivechanam atra manasi vivechanam syat, manasi vivekah syat. Rich dhatu hasti chet vechanam bhavati, rich dhatu hasti chet
rechanam,
rechanam bhavati. Vivechanam bhinnam, virechanam bhinnam. Ruch asti chet kim bhavati
rochanam,
rochanam.
Ruch asti chet rochanam. Ete dhatavah bhinnaah. Vich dhatu tu prudhak bhave, prudhak karanam ityasmin arthe asti. Bahu uttamah asti. सार्वधातुकरूपाणि साधयितुम् इच्छामश्चेत् तत्र बहूनि कार्याणि सन्ति इति भाति. न केवलं सन्धिकार्याणि, अङ्गकार्याणि अपि कर्तुं बहूनि सूत्राणि अपेक्षितानि. रुधादिगणीयधातुः अस्ति. विनक्ति, विङ्क्तः, विञ्चन्ति एवं रूपाणि वक्तव्यानि. विच् धातोः लटीरूपाणि. अस्तु, वयं सम्यक् चिन्तनं कृतवन्तः. आगामिन्यां कक्षायां वक्ष्यामः. आगामिन् इति नकारान्तप्रातिपदिकमस्ति. आगामिन्यां कक्षायाम् इति कथनेन कक्षा इति स्त्रीलिङ्गपदमस्ति इति कारणतः आगामिन्यां कक्षायाम् इति भवति. अस्तु, अग्रिमे सप्ताहे अन्यान् विषयान् ज्ञास्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
अनेके धन्यवादाः भगिनि.